इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्याः वार्ताः। वरिष्ठः धर्मगुरुः अयातुल्ला अली रेजा अराफी इत्येषः अली खामेनेई इत्यस्य हत्यायाः अनन्तरम् ईरान देशस्य अन्तरिम सर्वोच्च नेतृत्वेन कार्यं करिष्यति। अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन तेहरानं सावधानं कृतं यत् अमेरिका देशः तस्योपरि सुदृढ प्रहारं करिष्यति। तमिलनाडु राज्यस्य मदुरै नगरे अद्य अपराह्ने प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रायः 1,40,000 कोटिरूप्यकाणाम् आधारभूत संरचना प्रकल्पानाम् उद्घाटनं राष्ट्राय समर्पणं शिलान्यासः च कृतः। सः अवदत् यत् अद्यतनः कार्यक्रमः तमिलनाडोः विकासयात्रायाः गौरवपूर्णाध्यायः अस्ति। नागपुरस्य राउलगाम इत्यत्र SBL एनर्जी लिमिटेड इत्यत्र जाते विस्फोटे 17 जनाः मृताः। अपि च ICC पुरुषाणां 20-प्रति-20 विश्वचषक स्पर्धायाम् अद्य सायंकाले कोलकाता नगरस्य ईडन गार्डन्स इत्यत्र अन्तिम उत्कृष्टाष्ट क्रीडायां भारतं वेस्टइंडीज दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। वरिष्ठः धर्मगुरुः अयातुल्ला अली रेजा अराफी इत्येषः अली खामेनेई इत्यस्य हत्यायाः अनन्तरम् ईरान देशस्य अन्तरिम सर्वोच्च नेतृत्वेन कार्यं विधास्यति। इस्ना वार्तावाहिन्यनुसारम् अयातुल्ला अली रेजा अराफी इत्यनेन सर्वोच्च नेतृत्वस्य कर्तव्यानि निर्वोढुम् अस्थायी नेतृत्व परिषदः सदस्यत्वेन नियुक्तः। यावत् ईरान देशस्य संवैधानिक प्रक्रियायाः अन्तर्गतम् उत्तराधिकारी रचितः भविष्यति। ईरानी प्रशासनिक मीडिया माध्यमेन अद्य पुष्टीकृतं यत् अमेरिकी इज़राइली वैमानिक आक्रमणेषु ईरान देशस्य सर्वोच्च नेता अयातुल्ला अली खामेनेई दिवंगतः। तस्य मृत्युः अमेरिका इज़राइल संयुक्त प्रक्षेपास्त्र आक्रमणानन्तरम् अभवत्, येषु ईरानस्य सैन्यस्थलानि लक्ष्यीकृतानि आसन्। ईराने 40 दिवसानां राजकीय शोकः घोषितः। ईरानस्य प्रशासनिक वार्तावाहिन्यनुसारं देशस्य रक्षापरिषदः सभां लक्ष्यीकृत्य कृतस्य आक्रमणस्य परिणामस्वरूपं ईरानस्य सेनाप्रमुखः रक्षामन्त्री चोभौ मृत्युमुपगतौ। जनरल अहम अब्दुल रहीम मूसावी तथा रक्षामन्त्री जनरल अजीज नसीर जादेह तथा च ईरानस्य अर्धसैनिक क्रांतिकारीणां प्रमुखः एवं सुरक्षा परामर्शदाता अली शमखानी अपि तस्मिन्नाक्रमणे हताः। ईरानस्य प्रशासनिक वार्तावाहिन्या अद्य सैन्यनेतॄणां निधनस्य घोषणा कृता। तेन उक्तं यत् न्यूनातिन्यूनं 200+ जनाः मृताः तथा च 700+ जनाः व्रणिताः सन्ति। प्रतिवेदनानुसारम् आक्रमणेषु प्रायः ईरानस्य 40 अधिकारिणः अपि हताः। प्रत्युत्तरे ईरान देशेन पश्चिम एशिया क्षेत्रे आक्रमणानि आरब्धानि। दुबई दोहा बहरीन तथा कुवैत इत्येतेषु स्थानेषु ईरानेन आक्रमणानां वार्ताः प्राप्ताः। एतानि तानि स्थानानि सन्ति यत्र अमेरिकी सैन्य आधाराः सन्ति वा ये देशाः अमेरिका देशस्य सहयोगिनः सन्ति। अमेरिका देशस्य राष्ट्रपति डोनाल्ड ट्रम्पः सामाजिक माध्यमे लिखितवान् यत् खामेनेई इत्यस्य निधनानन्तरम् ईरानी जनानां कृते स्वसन्देशं पुनः प्राप्तुं महान् अवसरः अस्ति इति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। तेहरान इस्फहान तथा मशहद चेत्यादिषु नगरेषु सहस्रशः जनाः स्वस्य सर्वोच्च नेतुः अयातुल्ला अली खामेनेई इत्यस्य निधने शोकं प्रकटयितुं समागताः। राज्य वार्तावाहिन्या तस्य निधनं रक्षक की सहादत इति रूपेण निरूपितम्। यत्र तस्य अन्तः पराजयः न अपितु राष्ट्रस्य सार्वभौमत्वाय अन्तिम बलिदान रूपेण प्रदर्शितम्। नागरिकाः पवित्रस्थानेषु श्रद्धाञ्जलिम् अर्पयन्ति तथा च आक्रमणानां विरोधं कुर्वन्ति, यतः ईरान देशः नेतृत्व परिवर्तनाय वर्धित राष्ट्रिय सुरक्षायै च सज्जः अस्ति। मध्य ईरानस्य इस्फहान नगरस्य निवासिनः इमाम चौक इत्यत्र समागत्य आक्रमणानां विरोधं कृतवन्तः तथा अयातुल्ला खामेनेई इत्यस्य निधने शोकं प्रकटितवन्तः। पूर्वोत्तर दिशि स्थिते मशहद नगरे शोकाकुलाः जनाः स्वस्य दिवंगत नेतारं श्रद्धांजलिं प्रदातुं इमाम रजा पवित्र तीर्थस्थले समागताः। अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन तेहरानं सावधानं कृतं यत् अमेरिका देशः तस्योपरि सुदृढ प्रहारं करिष्यति इति। सः ट्रुथ सामाजिकान्तर्जालीय पटले लिखिते लेखे उक्तवान् यत् ईरान देशेन अद्यैव उक्तं यत् ते अद्य अतीव सुदृढ प्रहारं करिष्यन्ति इति, यावत् पूर्वं कदापि न कृतम्। सः अवदत् यत् ते एतत् न करिष्यन्ति, तथापि यदि ते करिष्यन्ति तर्हि अमेरिकादेशः तेषामुपरि पूर्वं न दृष्टं तावत् शक्त्या प्रहारं करिष्यति। ईरानदेशः स्वस्य सर्वोच्चनेतुः अयातुल्ला खामेनेई इत्यस्य हत्यायाः प्रतिकारस्य प्रतिज्ञां कृत्वा अमेरिका इज़राइल देशयोः आधारस्थलेषु नूतनानि आक्रमणानि प्रारब्धानि। तमिलनाडुराज्यस्य मदुरैनगरे अद्य अपराह्णे प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रायः 4,500 कोटिरूप्यकाणां आधारभूतसंरचनाप्रकल्पानाम् उद्घाटनं राष्ट्राय समर्पणं शिलान्यासः च कृतः। एतासु परियोजनासु कुम्भकोणं येरकाड वेल्लोर इत्येतेषु स्थानेषु त्रीणि नूतनानि आकाशवाणी एफएम प्रेषित्रा यन्त्राणि सन्ति। एतानि प्रेषित्रा यन्त्राणि क्षेत्रीय प्रसारस्य विस्तारं करिष्यन्ति, अविरामं एफएम प्रसारणं सुनिश्चितं करिष्यन्ति। राज्यस्य बहुविध मण्डलेषु सार्वजनिक प्रसारण सेवां प्रसारणम् अपि वर्धिष्यति। एनडीए दलस्य जनसभां सम्बोधयन् प्रधानमन्त्री अवदत् यत् अद्यतनः कार्यक्रमः तमिलनाडुराज्यस्य विकासयात्रायाः गौरवपूर्णाध्यायः अस्ति।
We have laid foundation stones, inaugurated and dedicated to the nation projects worth over 4,400 crore rupees. These projects will transform connectivity, boost the economy, create jobs and transform lakhs of people's lives. Better roads for farmers to reach markets, easier travel for pilgrims and tourists, faster transport for businesses. Building high quality infrastructure is about empowering people.
Pradhanamantri Tiruppuran Kundram Nagarasya अरुलमिगु सुब्रमण्यम स्वामी मंदिरे अपि दर्शनम पूजाम च विधास्यति। प्रधानमंत्री नरेन्द्र मोदी पुदुच्चेरी नगरे 27,100 कोटि रूप्यकाधिक मूल्यानां विकास परियोजनानां शिलान्यासः राष्ट्रार्पणं च अकरोत्। प्रतिव्यक्ति आयस्य वृद्धिं देशे च सर्वोच्च सामाजिक सूचकांक प्राप्तिं दृष्ट्वा प्रधानमन्त्रिणा पुदुच्चेरी प्रदेशस्य प्रशंसा कृता। सः अवदत् यत् प्रशासनम् अस्य केन्द्रशासित प्रदेशस्य विकासम् अधिकं वेगेन अग्रे नेष्यति।
पुडुचेरी has shown an impressive rise in per capita income. It has also achieved the highest social progress index score in the country. Now, the double engine NDA government will add more momentum to Puducherry's growth. Today, projects worth more than 2,700 crore rupees are being inaugurated and foundation stones are being laid. These projects will transform the lives of the people.
तेन विश्वासः प्रकटितः यत् पुदुचेरी भविष्ये चिकित्सा पर्यटनस्य प्रमुख केन्द्र रूपेण उदयमानं भवितुं शक्नोति।
We believe that healthcare should be accessible, available and affordable to all. Ayushman Bharat scheme is already fulfilling the vision for crores of families across India. No citizen of Puducherry should be forced to travel far for treatment.
नागपुरस्य राउल गांव इत्यत्र SBL एनर्जी लिमिटेड इत्यत्र जाते विस्फोटे 17 जनाः मृताः। महाराष्ट्रस्य मुख्यमंत्री देवेन्द्र फडणवीसेन सामाजिक पटले सूचनैषा प्रदत्ता। विस्फोटनानन्तरं महति अग्निप्रकोपः अभवत्। अस्यां घटनायां 18 कर्मचारिणः व्रणिताः। राष्ट्रीय आपत् प्रतिक्रिया बलस्य राज्य आपत् प्रतिक्रिया बलस्य च दलानि तत्र आगतानि सन्ति। उद्धार कार्याणि च तीव्रवेगेन प्रचलन्ति। आईसीसी पुरुषाणां 20-प्रति-20 विश्व चषक स्पर्धायां अद्य सायंकाले कोलकाता नगरस्य ईडन गार्डन्स इत्यत्र अन्तिम उत्कृष्टाष्ट क्रीडायां भारतं वेस्टइंडीज दलं सम्मुखीकरिष्यति इति वार्ताः।